पादः अथ योगानुशासनम् योगः चित्तवृत्तिनिरोधः तदा द्रष्टुः स्वरूपे वस्तानं वृत्तिसारूप्यम् इतरत्र वृत्तयः पञ्चतयः क्लिष्टाक्लिष्टाः प्रमाण विपर्याय विकल्प निद्रास्मृतयः प्रत्यक्ष अनुमान आगमाः प्रमाणानि विपर्ययो मिथ्यान्यानम् अत्तद्रूपप्रतिष्ठम् शब्दान्यानानुपाति वस्तुशून्यो विकल्पः अभावप्रत्यय आलम्बना वृत्तिर्निद्रा अनुभूतविषय असम्प्रमोषः स्मृतिः अभ्यासवैराग्याभ्यं तन्निरोधः तत्र स्थितौ यत्नोऽभ्यासः स तु दीर्घकाल नैरन्तर्य सत्कारसेवितो धृदभूमिः दृष्टानुश्राविक विषयवितृष्णस्य वशीकारसंज्ञा वैराग्यं तत्परं पुरुषख्यातेः गुणवैतृष्ण्यम्।